सर्वेभ्यो नमः। अद्य परमलघुमञ्जूषायाः दशमः पाठः, मार्च् मासस्य ऊनत्रिंशः दिनाङ्कः। अद्य लक्षणनिरूपणस्य किञ्चित् पुनरावर्तनं कृत्वा व्यञ्जननिरूपणं पश्यामः। सर्वेषां नूतनसंवत्सरस्य युगादिपर्वणश्च शुभाशयाः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। शिवन्नत्वा हि नागेशेनानिन्द्या परमालघुः वैयाकरणसिद्धान्तमञ्जूषैषा विरच्यते। लक्षणानिरूपणम् अस्माभिः अधीतम्। शक्तिः लक्षणा व्यञ्जना इति तिस्रः वृत्तयः। तत्र आदौ शक्तिः नामका इति दृष्टवन्तः। पदपदार्थयोः सम्बन्धः वाच्यवाचकभावापरपर्यायः शक्तिः, सा च इतरेतर अध्यासमूलकेन सङ्केतेन तादात्म्यसम्बन्धद्वारा गृह्यते इत्यादि दृष्ट्वा शक्तेः भेदान् दृष्टवन्तः। योगः रूढिः, योगरूढिः इति शक्तिग्रहस्य शक्तिनियमनस्य उपायानपि दृष्टवन्तः। द्वितीया वृत्तिः लक्षणा। लक्षणा नाम का? सो लेट्स टेक् अ फ्यू क्वेश्चन्स् एण्ड् ट्रै टु डिस्कस् वाट् वी स्टडीड् अबौट् लक्षण। एनिबडी वाण्ट्स् टु आन्सर् दिस्? वाट् इस् लक्षण? लक्षणा नाम का? You can raise your hands and answer. Bhanuprakash Mahoday.
Swashakya sambandho lakshana.
Swashakya sambandha. Namakahartha. How do we explain that?
The relationship between the shakya is the artha. So what it means is it means that the relationship that exists between the shabda and the and one that you're trying to say. That means the let me try to explain, ma'am. Let me say I have a word, and then I have shakyartha for that word.
Yes.
And the lakshana means what I am trying to relate to this word.
Exactly. So swashakya
shakyaha.
So swam nama padam, padasya shakyaha kashchid arthaha bhavati, tena saha sambandhaha. But the word is used to convey not that direct meaning, but another meaning which is related to this meaning. So that is what we call the lakshana. Swashakya sambandhaha. Yatha gangapadena yadi pravahasya vivaksha vartate, tarhi sa shaktihi. So Ganga conveying the meaning of the river is Shakti. But when it is used to convey a meaning other than the Pravaha, which is related to the Pravaha, like the Tira, we call it as Lakshana. So Shakya Sambandhaha Lakshana iti Lakshanayaha Swarupam Gangayanghoshaha ityadini udaharanani. Tatra adau prakaradvayam pradarshyate Lakshanayaha. गौणी लक्षणा, शुद्धा लक्षणा इति को भेदः? गौण्याः लक्षणायाः शुद्धायाश्च कः भेदः? किमुदाहरणम्? उदाहरणद्वारा प्रदर्शयितुं शक्यते। Anybody? Sheila. Na Shruyate, unable to hear you. Are you speaking? I'm sorry, maybe your microphone is not working. I'm not able to hear anything. Anybody else? I think you have muted yourself, Bhanu Prakash Mahana.
Swamiji, I think this is what I understood about this. If the sadhana sambandha is there, when we are trying to understand the lakshana, then it is called gauni. Otherwise, it is some other relationship, then it is called shuddha.
Correct. So, gauni. Gauni means gunad agata gauni. So, when the gunas are being compared, that is, there is a sadrishya in the gunas between the shakyartha and the lakshyartha. Always, since the lakshana is defined as swashakya sambandha, the lakshyartha is related to the shakyartha. And that relation is of five kinds, as we see later. So now, if that relation is sadrishya, the sambandha between the shakyartha and the lakshyartha, what we are seeing is the sadrishya, then we call it as gauni lakshana. As in case of agnihi manavakaha. So the word agni here does not refer to actual fire. It means agni sadrishaha. So agni agnehe yaha padarthaha vanhi rupaha tasya ye gunaha yatha tejaha athava shuchitvam ityadi taihi tad guna yuktaha balakaha ityarthaha evam yaha lakshyarthaha tasya guna gunaihi sadrishya sambandha bhavati sa gauni lakshana anya lakshana tu shuddha. So any other kind of relation between the shakyartha and the lakshyartha is called the shuddha lakshana. It could be anything like gangayam ghoshaha ityatra pravahasya tirasya cha sadrishya sambandha na apitu samipya sambandha evameva manchaha kroshanti ityatra manchanam manchasthanam purushanam sadrishya sambandha na tatra tu tatsthyam ityuchyate manchasthitaha purushaha natu tesham manchena saha sadrishyam uchyate evancha tadrishi lakshana shuddha lakshana ityuchyate sadrishya sambandhena ya lakshana uchyate sa gauni gauni shuddha iti lakshana dvividha punashcha trividha jahat swartha ajahat swartha jahad ajahat swartha iti trividha bhavati. Kim nama jahat swarthatvam, kim va ajahat swarthatvam, kim udaharanam. Vidula.
Hello. Jahat jahat swartha yatra pad पदः स्वार्थं न जहाति किन्तु अन्यदर्थमपि बोधयति
सा का तादृशी
जहत्स्वार्था
जहत्स्वार्था न अजहत्स्वार्था जहति नाम त्यजति
अजहत्स्वार्था
उदाहरणं
स्वस्य अर्थमपि न जहाति अन्यदर्थमपि बोधयति सः अजहत्स्वार्था उदाहरणं
काकेभ्यो दधिरक्षताम् तत्र कथम् अजहत्स्वार्थत्वम्
अजहत्स्वार्था यतः काकेभ्यो इत्यत्र काकेभ्यापि दधिरक्षताम् किन्तु अन्ये दध्युपघातकेभ्यः अपि दधिरक्षताम् इति
काकेभ्यः दधि रक्ष्यताम् प्रोटेक्ट् द कर्ड्स् फ्रम् द क्रोस् डस् नाट् मीन् यु अलौ से अ केट् टु ड्रिङ्क् द कर्ड्स् सो यु हव् टु प्रोटेक्ट् इट् फ्रम् द क्रोस् from the cat, from the dog, or anything else that tries to harm the curd. So the word kaka there indicates not just the kaka, not just the crows, but also any other being which has the intention to harm the curds. Ataha ajahat swartha, the meaning of crows is also there. So you cannot allow crows and prevent everybody else. Ataha kakebhya kakaha iti swarthaha api grihyate, swarthena saha anye arthaha api tat sadushaha anye praninaha. Sadrishyam cha dadhi upaghatakatvena iti sarvesham api grahanam bhavati. Esha gauni lakshana ajahat swartha lakshana.
Tataha jahat swartha yatra padam swartham na bodhyati kintu pararthame eva tasmat jnayate yatha
kim prasiddham udaharanam lakshanaya If you don't know anything in Lakshana, you should at least tell Gangayam Ghosha. Yeah.
Gangayam Ghosha, tha Gangayam ityatra Nadyam iti artha na bhavati, kintu tire iti Lakshana artha eva pratiyate.
Tatra pravaha rupaha shakyarthaha tyajyate, tira rupaha anyarthaha eva bodhyate ityataha sa jahatvartha shuddha lakshana. अस्तु अन्य अपि अस्ति सो जहत्स्वार्था यत्र अजहत्स्वार्था यत्र स्वार्थ संवलित परार्थ बोधकत्वं सो स्वार्थेन सह परार्थस्यापि बोधः यत्र भवति सा अजहत्स्वार्था लक्षणा यत्र तु स्वार्थ परित्यागेन परार्थस्य बोधनं भवति सा जहत्स्वार्था इत्युच्यते कदाचित् जहदजहल्लक्षणा इत्यपि उच्यते यत्र स्वार्थस्य एकदेशः त्यज्यते एकदेशः स्वीक्रियते यथा पटोदग्धः सो द क्लॉथ इज बर्न्ट तत्र पटः पूर्णतया दग्धः इत्यर्थः न पटस्य कश्चन अंशः स्मॉल पोर्शन सम पोर्शन ऑफ द क्लॉथ इज बर्न्ट अतः सा जहदजहल्लक्षणा वस्तुतः पटः इत्येव अर्थः स्वार्थः न त्यज्यते किन्तु स्वार्थस्य पूर्णः अंशः दग्धः इति न तस्य भागः एकदेशः नाम भागः अतः स्वार्थ एकदेश बोधकत्वं यत्र भवति सा जहदजहल्लक्षणा इत्युच्यते जहदजहत्स्वार्थत्वं तत्र दृश्यते अस्तु अग्रिमं लक्षणा कैः सम्बन्धैः ज्ञायते So what are the different sambandhas to which we derive the lakshyartha? So there are five given in a verse. So anybody wants to explain those? You can, even if you have a book, you can look and tell. I mean, I'm not that you have to do this. Yes, Tambhara.
I'm just... Tathya. Parmyam. Sami.
सम्यक् स एवं पञ्च सन्ति तात्स्थ्यं ताद्धर्म्यं तत्सामीप्यं तत्साहचर्यं तादर्थ्यम् इति पञ्च सम्बन्धाः सन्ति उदाहरणं
तत्र तात्स्थ्यात् इत्यत्र मञ्चाः सन्ति इति यदि वयं Mancha Hasanti, it doesn't mean those who are sitting in the mancha or laughing. It doesn't mean a mancha hasati. It means those who are sitting in the mancha are laughing.
Satyam. Tatsthaha. So tatra tishtati iti tadarthaha. Ye manche sthitaha te hasanti ityarthaha natu swayam manchaha hasati iti. Ataha tatsthyat tatra manchastha purushanam pratitihi. अतः तात्स्थ्यात् तत्र लक्ष्यार्थस्य बोधः
देन् फोर् ताद्धर्म्यम् सिंहो मानवकः वेन् वी टेल् सिंहो मानवकः इट् डसन्ट् मीन् द स्टूडेंट इस् अ लायन् इट् डसन्ट् मीन् हि हास् अ टेल् आर् समथिंग् लैक् दैट इट् हि रिसेम्ब्ल्स् हि हास् द कैरेक्टर्स् आफ् अ लायन्
यथा धैर्यं साहसः इत्यादि गुणाः सन्ति इत्यर्थः ताद्धर्म्यं धर्मः तस्य धर्माः नाम गुणाः सन्ति इतः ताद्धर्म्यात् तत्र लक्ष्यार्थस्य भानम्.
तत् सामीप्यम् एक्साम्पल् इस् गङ्गायां घोषः. तीरा इस् क्लोस् टु गङ्गा.
सत्यं, गङ्गा इति प्रवाहः शक्यार्थः. तत् समीपः, समीपे यः अस्ति, यदस्ति तीरं, तदेव शक्यार्थत्वेन गृह्यते. लक्ष्यार्थत्वेन गृह्यते, अतः तत् सामीप्यात् लक्ष्यार्थस्य भानम्.
अनन्तरं तत् साहचर्यं, तस्य उदाहरणम् उदाहरणं न जानामि.
कुन्ताः प्रविशन्ति तत्र, अथवा यष्टिः, यष्टयः प्रविशन्ति, कुन्ताः प्रविशन्ति. कुन्तः नाम अस्त्रं. तत्सहिताः पुरुषाः इत्यर्थः. तत्र साहचर्येण पुरुषाणां प्रतीतिः. द स्पियर्स् केनाट् वाक् इन् बै देम्सेल्स्. अतः मुख्यार्थस्य बाधात् लक्षणा क्रियते. कुन्तसहिता सहचरिताः पुरुषाः प्रविशन्ति इत्यर्थः.
अनन्तरं तादर्थ्यम् इन्द्रार्थात् स्पूना इति. देयर इस् अ पिल्लर् विच् हेस् द नेम् इन्द्रः.
एक्साम्पल् इस् इन्द्रः स्थूणा. सो द वर्ड् इन्द्रा देर् इन् रेफर्स् टु समथिङ्ग्, रेफर्स् टु द पिल्लर् इट् सेल्फ़. सो वै इस् द पिल्लर् काल्ड् इन्द्रा? द पिल्लर् इस् नाट् इन्द्रा. सो तत्र तादर्थ्यं, सो इन्द्र इति शब्दस्य इन्द्रार्थ इत्यर्थः. सो देर् वि आर् डिरैविङ्ग् द लक्ष्यार्थ यूसिङ्ग् द तादर्थ्य सम्बन्ध. सम्यक्. सो पञ्चभिः सम्बन्धैः लक्षणा ज्ञायते. तात्स्थ्यात् तथैव ताद्धर्म्यात्, तत्सामीप्यात् तथैव च, तत्साहचर्यात् तादर्थ्यात् ज्ञेया वै लक्षणाबुधैः इति श्लोकः. सो परीक्षायां श्लोकसहितं विवरणं दातव्यं भवति. सो इट् इस् आल्सो द ईजियेस्ट् वे टु रिमेम्बर्. लक्षणाबीजं किं समर्थयत? सो वै डु वि रिसार्ट् टु लक्षणा? लक्षणायाः किं बीजम्, अथवा लक्ष्यार्थस्वीकारे किं मानम्, किमर्थं लक्षणा स्वीक्रियते?
नमस्ते. नमस्ते. लक्षणाविधं किम् इत्युक्ते अन्वय अनुपपत्तिप्रतिसन्धानम्, अन्वय अनुपपत्ति विचारः इत्येव लक्षणाविधं. कुतः इत्येत् गङ्गायां घोषः इत्युक्तौ तत्र गङ्गायां घोषस्य अन्वय अनुपपत्ति अस्ति इति कृत्वा तत्र घोषपदस्य गङ्गा तीरे तत्र अन्वय भवति. तथा न कुर्मः चेत् तत्र अन्वय अनुपपत्ति भवति इति कृत्वा तत्र लक्षणायाः आवश्यकता अस्ति. परन्तु कदाचित् तत्र अन्वय उपपत्ति घोषपदस्य तत्र नक्रः इति कुर्मः चेदपि तत्र अन्वय उपपत्ति भवति इति कृत्वा तत्र अन्वय उपपत्ति करणेन केवलं तत्र न सिद्ध्यति. कदाचित् तात्पर्य अनुपपत्ति स्वीकृत्वा तत्र लक्षणा स्वीकरणीया भवति. परन्तु तत्र अनुगमकद्वयस्वीकरणे गौरवम् इति कृत्वा तत्र केवलम् एकानुगमकरूपेण केवलं तात्पर्य अनुपपत्ति एव लक्षणायाः बीजम् इति स्वीकृतम्.
सम्यक्. तार्किकैः तदेव अन्वय अनुपपत्तिः लक्षणायाः बीजम् इत्युच्यते. अन्वयः न सम्भवति अथवा अन्वये अर्थः न सङ्गच्छते इति कृत्वा तत्र अन्यः अर्थः, शक्यार्थः यः अस्ति तेन अन्वयस्य अनुपपत्तिः, यथा गङ्गा इत्यस्य प्रवाहरूपे अर्थे स्वीकृते अन्वयः अनुपपन्नः इति कृत्वा तत्र गङ्गापदस्य तीरे लक्षणा इति वदन्ति. किन्तु नागेशेन उच्यते केवलम् अन्वय अनुपपत्त्या एव लक्षणा इति चेत् तत्र घोषशब्दस्यैव अर्थान्तरं कल्पयितुं शक्यते. यथा घोषशब्दस्य यदि मीनः इति वा मकरः इति वा अर्थः कल्प्यते तदापि अन्वयः सिद्ध्यति. गङ्गायां नाम गङ्गाप्रवाहे मीनः अथवा मकरः इत्येवम् अर्थः सिद्ध्यत्येव, अन्वय उपपत्तिः भवति. किन्तु तात्पर्यं तत्र नास्ति. वाक्यं किमर्थं प्रयुक्तम् इत्युक्ते तस्य घोषस्य गङ्गासामीप्यात् गङ्गास्थाः धर्माः यथा शैत्यपावनत्वादयः तत्र विद्यन्ते इति इत्येव विवक्षा. तदेव तात्पर्यम्। अतः तात्पर्य अनुपपत्तिः यद्यपि घोषशब्दे मकरादि लक्षण स्वीक्रियते तदापि तात्पर्यं तु अनुपपन्नमेव, यतोहि तात्पर्यं तत्र नास्ति। अतः तात्पर्य अनुपपत्ति प्रतिसन्धानमेव लक्षणाबीजं स्वीकर्तव्यम्। उभयम् इति तु नावश्यकम्। अन्वयानुपपत्तिः कदाचित् तात्पर्य अनुपपत्तिः इति चेत् किमर्थं द्वयम्? एकम् अनुगमकं, सर्वत्रापि यत्र यत्र लक्षण तत्र तात्पर्य अनुपपत्तिः इत्यनेनैव यदा इष्टं सिद्ध्यति तदा उभयोः अन्वय तात्पर्य अनुपपत्योः स्वीकारे गौरवम् इति कारणेन सर्वत्र तात्पर्य अनुपपत्तिरेव लक्षणाबीजम् इति स्वीकरणीयम् इति नागेशः। तत्र अन्यान्यपि उदाहरणानि तेन दत्तानि, यथा नक्षत्रं दृष्ट्वा वाचं विसृजेत् इत्यत्र अन्वय उपपत्तिरेव अस्ति। नक्षत्रं पश्यति अनन्तरं सम्भाषणं करोति अर्थात् मौनं जहाति इत्यर्थे अन्वय उपपत्तिः अस्ति। किन्तु तात्पर्यं तत्र न, नक्षत्रदर्शने तात्पर्यं न, रात्रिकाले एव तात्पर्यम्। अतः दर्शन नक्षत्रदर्शनयोग्यः यः कालः रात्रिः तत्र तदा मौनं त्यक्तुं शक्यते इत्येव तात्पर्यम्। अतः अन्वय अनुपपत्ति प्रतिसन्धानं लक्षणाबीजं न, अपि तु तात्पर्य अनुपपत्ति प्रतिसन्धानमेव लक्षणाबीजम् इति उच्यते सिद्धान्तः। वाक्यलक्षण नाम का? किमुदाहरणम्? वाट् इस् वाक्यलक्षण?
Ma'am, maybe I'm guessing here again, but the Nayayikas don't accept the Lakshana for the Vakya.
Yes.
So, when we have, let us say, Gabirayam Nadhyam Goshaha, there are three ways in which we can understand the Lakshana.
Hmm.
Whether the Lakshana is given for the Gabira Pada or for the Nadi Pada or for the both. But in these three forms also there will be some dosha.
Correct. So?
After that I didn't understand.
No problem. Ataha kim vadanti idanim gabhirayam nadyam ghoshaha ityasti. Kaha arthaha? Nangayam ghoshaha iti... समानाकारकः प्रयोगः। विलेज् इज् सिचुएटेड् आन् द बेङ्क्स् आफ् अ डीप् रिवर् इत्यर्थः। नद्यां गाम्भीर्यमस्ति, तस्याः तीरे कश्चित् घोषः ग्रामः विद्यते। तत्र प्रश्नः, यदि अत्र लक्षण पदे लक्षण पदपदार्थसम्बन्धः लक्षण इत्युच्यते, यदि अत्र पदे लक्षण स्वीकर्तव्या कस्य पदस्य लक्ष्यार्थः वक्तव्यः? गभीरपदस्य तीरे लक्षण वा नदीपदस्य तीरे लक्षण वा? नदीपदस्य तीरे लक्षण इत्युक्ते वाक्यं किं भवति? गभीरे तीरे घोषः इति भवति। तत्तु न, यतोहि तीरं गभीरं न, नदी एव गभीर न तु तीरम्। अस्तु, तर्हि गभीरपदे लक्षणां स्वीकुर्मः इति चेत् किं भवति? गभीरशब्दस्य तीरम् इत्यर्थः। तीरे नद्यां घोषः इति वाक्यं भवति। तीरं नदी न, अतः तीरस्य नद्याश्च समानाधिकरण्यं न सम्भवति। अस्तु, तर्हि उभयोः पदयोः तीरे लक्षणां स्वीकुर्मः, अर्थात् गभीरपदादपि तीरमेव उच्यते, नदीपदादपि तीरमेव उच्यते इत्युक्ते तीरे घोषः इत्येव अर्थः भवति। गाम्भीर्यविशिष्टायाः नद्याः तीरे घोषः इति अर्थः न सिद्ध्यति, स एव अर्थः विवक्षितः। अतः मीमांसकैः वाक्यलक्षण स्वीक्रियते, यथा तेन उक्तं तार्किकैः न। तत् अतः मीमांसकाः वदन्ति गभीरायां नद्यां घोषः इत्यत्र बोध्यार्थः नाम शक्यार्थः कः? गभीरत्वविशिष्ट नदी नद्यधिकरणकः नद्यधिकरणकः घोषः इत्यर्थः भवति। तत्र बोध्यः यः अर्थः स्वबोध्यसम्बन्धः शक्तिः तु पदे एव किन्तु अत्र बोध्यार्थः सर्वेषां पदानां शक्तिं मिलित्वा यः अर्थः बुध्यते तस्य अर्थस्य लक्षण अर्थात् गभीरत्वविशिष्टा नदी अधिकरणम् इत्यस्ति तत्र गभीरत्वविशिष्टा नदी इति बोध्यार्थे लक्षणा स्वीक्रियते तादृशनद्याः तीरम् इत्यर्थः सम्भवति अतः अत्र वाक्यलक्षण स्वबोध्यसम्बन्धो लक्षण इति केचित् इत्यनेन मीमांसकानां मते वाक्यलक्षण अपि स्वीक्रियते लक्षितलक्षण नाम का किमुदाहरणम् So these are all different terms which are used in relation to lakshana. Lakshita lakshana, does anybody remember? Dvirepha ityasti. Dvirepha padasya vastadaha kaha arthaha dvau repau yasya ityasaha. Tatra dvau repau ityanena yoga rudhya bhramara iti padam svikriyate. Dvau repau tu भ्रमर पदे भवतः न तु भ्रमर पदार्थे अतः द्विरेफ पदस्य शक्यार्थः भ्रमरः इति पदम् किन्तु तस्य बोध्यः यः अर्थः भ्रमर पदार्थः सः कीटः सः एव द्विरेफ पदस्य अर्थत्वेन स्वीक्रियते पदस्य शक्तिस्तु योगेन वा योगरूढ्या वा भ्रमर पदे तत्पदबोध्यः अर्थः तस्य पदस्य यः अर्थः अस्ति सः द्विरेफपदस्य अर्थत्वेन स्वीक्रियते तत्र तु लक्षितलक्षण इति व्यवहारः दृश्यते इत्येवं लक्षणानिरूपणं कृतम् ततः प्रयोजनमाश्रित्य लक्षणायाः द्वौ भेदौ कौतौ किम् उदाहरणम् सो इस् अनदर् कैण्ड् आफ् डिविजन् आफ् लक्षण बेस्ड् आन् द प्रयोजन So what is the Veda, what is the division, and what is the example? Shivaram Kulkarni, Mahoday.
Namaste.
Ah, Shweta.
प्रयोजनवती तथा
निरूढ सत्यं प्रयोजनवती रूढ इति भेदद्वयम् किम् उदाहरणम् स्मर्यते इति कीदृशी लक्षण प्रयोजनवती लक्षण सत्यं तत्र गङ्गागतानां शैत्यपावनादीनां भानार्थं So the prayoga there is particularly to impose some of the properties of Ganga on the Tira or the Ghosha. Tadartham eva prayojanam ashritya kriyate ataha sa prayojanavati lakshana. Nirudha lakshana?
Chintana.
Tvachanyatam iti uchyata prayoga ha. Tvachanyatam known through the skin. Tatra tvakshabdena bahya padartha uchyata. It refers to the physical organ. किन्तु तत् ज्ञानस्य करणं न भवति सो यू केनाट् जस्ट् द स्किन् सो इफ् यू रिमूव् इट् फ्रम् द बाडी इफ् यू पील् आफ् द स्किन् इट् केनाट् सेन्स् एनिथिङ्ग् ओके सो इट् इस् नाट् द फिजिकल् लेयर् विच् हेज् द पर्सेप्टिबिलिटि ओके इट् इस् नाट् द आर्गन् आफ् पर्सेप्शन् त्वग् इन्द्रियम् सो देर् आर् सर्टन् रेसेप्टर्स् विच् इस् नोन् एस् द त्वग् इन्द्रियम् त्वग् इन्द्रियस्यैव ज्ञानकरणत्वं न तु त्वकः तथापि त्वचा ज्ञातम् इति प्रयुज्यते तदा तत्र त्वक्शब्दस्य त्वगिन्द्रिये लक्षण किं प्रयोजनम् नास्ति किञ्चित् प्रयोजनम् इट् इस् जस्ट् रूढिः लैक् वी हेव् द रूढशक्ति हियर् इट् इस् लक्षण इस् रूढ सर्वत्र त्वगिन्द्रियम् इति वक्तव्ये त्वक् इत्युच्यते तत्र विशिष्य किमपि प्रयोजनम् यथा गङ्गातीरे घोषः इति वक्तव्ये गङ्गायां घोषः इति उक्ते गङ्गागतानां गुणानाम् अत्र आरोपः प्रयोजनम् इति सिद्ध्यति एवं त्वगिन्द्रियेण ज्ञातम् इति वक्तव्ये त्वचा ज्ञातम् इति उक्ते किमपि प्रयोजनं न सिद्ध्यति एतादृशी लक्षण निरूढा लक्षण इत्युच्यते प्रयोजनवती रूढा इत्येवं लक्षणायाः द्वैविध्यम् इत्येवं लक्षणां निरूप्य अन्ते अस्माभिः छेदनम् अस्ति वा न वा वैयाकरणमते लक्षण अस्ति वा न वा कथं साध्यते So this is the key factor of Lakshana. I mean, knowing Lakshana is fine, which is done, but which can be done through any other text also. I mean, even Tarkikas develop Lakshana, they give examples. So the Vyakarana Siddhanta lies in this portion where we analyze whether Lakshana is to be accepted, as in it does not mean, so there is a question somebody asked in last class. So it does make sense. I mean, Gangayam Ghoshaha Ityatra, Gangatire Ghoshaha Ityarthaha Sarvasammataha. Kimartham Tarhi Lakshana Nirakriyate Iti Kenasit Prishtam. Why do we not accept Lakshana? See, it is not that we are not accepting the Lakshana at all. Does not mean that Ganga Parasya Gangatiram Ityarthahana Iti Na. What is being rejected is the idea of Lakshana as a separate vritti. Lakshana vrittitvena, prithak vrittitvena, shaktehe parthakyena angi kartavya utana ityatrayo matabhedaha. Lakshana asti arthat sarvani udaharanani sangachante. All those examples are valid. Gangapadena, gangatiram ityarthaha eva pratiyate. Evam manchashabdena, manchasthitaha purushaha ityarthaha eva. Tatra kopi virodhaha nasti. You cannot negate the examples nor the fact that they convey something which is not directly the prasiddhartha of that word. That is not the idea. The idea is that lakshana prithak vritti na. Lakshana need not be considered as a vritti separate from shakti. Ityeva arthaha astu astra. Ado ushrunamaha. Hanuprakash Mohode. You are muted yourself.
Swamiji, in the exam, I'm sorry, did I disturb the flow?
No, tell me.
I was just wondering, in Gaurvahikaha and Kuntan Pravishanti, is it Prayojana or is it Rudha?
Prayojanavati eva.
It's Prayojanavati.
Yeah, in Kuntan Pravishanti, Taikshnyam. So you are, Bhityutpadakam Taikshnyam. I mean, by referring to only the weapon, you are projecting the weapon as the most important part there, and the weapon brings along with it the qualities of being sharp, the sharpness or the, you know, being strict or generating fear and all that. So,
Gaurvahika also is the same mechanism.
Yes, you are superimposing the qualities of the cow, where it is not very active, it is relaxed and, you know, easy going and not putting in much of an effort, not excitable. So such... you are imposing such guna. So all those are prayojanavati lakshana.
Okay.
Thank you. Yeah. So lakshana nasti vayakaranamate lakshana nasti ityasya kaha arthaha lakshana iti prithag vrittitvena nangi kriyate ityeva arthaha. So all these examples are there. You can still refer to it as lakshana for clarity. But vastutaha tatra padapadarthayoho kasambandhaha iti chet shaktireva sambandhaha. Shakteh parthakyena lakshana iti prithak vrittihi nangi kriyate ityeva arthaha. Ateva saha vadati jaghanya vritti ashrayanasya anyayatva. Tatra lakshana iti yadi vrittihi angi kartavya tarhi kim kartavyam adau shaktihi bhavet. Shaktihi asti yatha ganga padasya shaktya pravahaha ityarthaha jnatavyaha. Tataha lakshanaya tatsambandhaha tirapadarthaha kalpaniyaha. Pravahartham tyaktva tiram ityarthaha svikaraniyaha. Vritti dvayasya kalpanam karaniyamado. Yatohi shaktyavina lakshana natishtati. You cannot have lakshana independently of shakti. So you always necessarily have to resort to shakti and then move on to lakshana. That is gauravam. Vritti dvaya kalpane ubhayoho avachedakatva kalpane. Yataha shakyata avachedakam bhinnam. Alakshatavachedakam bhinnam iti kalpane gauravam iti ekahamshaha. Jaghanya vritti kalpanayaha anyayatvam. When you resort to two vrittis and then you reject one of those vrittis, that is you give up shakti and then you take up the lakshana. So why did you go to shakti in the first place? Okay, so it is used only as an upakarana for lakshana. So instead of that, let's just take it as shakti. Yatra yatra lakshana ityuchyate tatra sa shakti reva. Aprasiddha shakti hiti vadamaha. So it is just a debate over terminology. I mean, and the fact that you don't have to accept a second vritti. Okay, lakshana as separate from shakti. So the pada itself conveys the meaning. Ganga iti padena shaktya eva tirasya bodhaha bhavati. Kintu saha artha aprasiddha. Ata eva shakte hai dvaividhyam pratipaditam. प्रसिद्धा शक्तिः अप्रसिद्धा शक्तिः आमन्दबुद्धिवेद्यात्वं प्रसिद्धात्वं सर्वैः यज्ञायते यथा गङ्गापदस्य गङ्गानदी इत्यर्थः सः शक्यार्थः तत्र प्रसिद्धा शक्तिः तीरम् इत्यर्थस्तु सहृदय हृदयेनैव बोध्यते यथा गङ्गायां घोषः इत्यत्र प्रसिद्धस्य अर्थस्य प्रसिद्धे अर्थे तात्पर्यं नास्ति इत्यतः तात्पर्य अनुपपत्या अप्रसिद्धः कश्चिदर्थः तत्र भाति तच्च सहृदयैरेव ज्ञायते तत्रापि शक्तिरेव सा शक्तिः अप्रसिद्धा शक्तिः इति वैयाकरणानां मतम् अस्तु इयं लक्षण एनी क्वेश्चन्स् वित् लक्षण एनी डौट्स् एनिथिङ्ग् यु वाण्ट् मी टु रिपीट् So the last vritti is the Vyanjana vritti and it is the most abstract of vrittis, okay, because it's not specific. That is, if you have lakshana, if you have shakti, okay, this is the meaning of the word. It is pashtam nyayate. Lakshanayam api vaktum shakyate, gangapadasya gangatiram ityeva arthaha, nanyat kinchana. Okay, so in a given context, lakshana is also a constant, that is steady, it's a specific thing, okay, where you can know, okay, this is the lakshyartha. Anena karanena, so etat prayojana sadhanartham etadvishi lakshana sikriyate ityadi. But vyanjana is totally different, okay. It is a vritti which could be multiple, as in the meanings which you get out of vyanjana is not single. Okay, it can be any number of meanings depending on many factors. Okay, it is very, very subjective. Okay, so Shakti and Lakshana are mostly objective. I mean, nobody would say Gangayam Ghoshaha means Gangayam Makaraha Asti. Okay, nobody will take Lakshana in Ghosha. Okay, it doesn't make any sense. So Lakshana is sort of standard. But Vyangyarthaha iti tu prithak prithak bhidyate. Okay, it depends on many factors. It depends on the speaker, on the listener, on the context, on the presence of others. He lists the factors. So there are many, many things which affect vyanjana. So what is vyanjana? Vastutaha atra vyanjana nirupanam atyantam laghu paramalaghu manjushayam. There is almost nothing in vyanjana prakarana except establishing that vyanjana exists. Tadeva tatparyam atra vyanjana prakarane. Vyanjana angi kartavya. एतत् स्मर्तव्यं तार्किकाणां मते शक्तिः लक्षणा इति वृत्तिद्वयं ते व्यञ्जनां नाङ्गीकुर्वन्ति वैयाकरणास्तु शक्तिः व्यञ्जना शक्तिं व्यञ्जनां च अङ्गीकुर्वन्ति लक्षणां नाङ्गीकुर्वन्ति आलङ्कारिकाः वृत्तित्रयमपि अङ्गीकुर्वन्ति इति स्थितिः आलङ्कारिकाणां मते अर्थत्रयमपि अस्ति शक्तिः लक्षणा व्यञ्जना तार्किकाः लक्षणाम् अङ्गीकुर्वन्ति व्यञ्जनां निराकुर्वन्ति वैयाकरणास्तु व्यञ्जनाम् अङ्गीकुर्वन्ति लक्षणां निराकुर्वन्ति इति स्थितिः अत्र व्यञ्जनानामका इत्यादि नोच्यते सि व्यञ्जना बिकास् इट् इस् अब्स्ट्राक्ट् इस् वेरि डिफिकल्ट् टु डिफैन् आर् टु डिवैड् लैक् वि डिड् से लक्षण आर् शक्ति सो व्यञ्जना इस् रफ्लि इफ् यु हाव् फेमिलियारिटि वित् अलङ्कारशास्त्र वाट् वि काल् द ध्वनि The Dhvani Siddhanta in the Alankara Shastra is based on these Vyangyartha, Vyanjana. Astu, nanu Vyanjana kah padarthaha. So what is this Vyanjana? Nanu Vyanjana kah padarthaha uchyate. Mukhyartha badha nirapeksha bodha janakaha. Mukhyartha sambandha sambandha sadharanaha. Prasiddha prasiddhartha vishayakaha. वक्त्रादि वैशिष्ट्यज्ञान प्रतिभाद्युद्बुद्धः संस्कारविशेषः व्यञ्जना इति व्यञ्जनायाः लक्षणम् यदि स्मर्यते शक्तिनिरूपणे लक्षणानिरूपणे च आदौ तार्किकाणां लक्षणं प्रयुक्तं तत्र यत्र विप्रतिपत्तिः तदेव प्रदर्शितं नागेशेन सो हि स्टार्ट्स् आफ् वित् तार्किकास् अत्र तु नास्ति यतोहि तार्किकाः नाङ्गीकुर्वन्त्येव व्यञ्जनाम् अतः तार्किकमतनिराकरणार्थमेव एतादृशं स्वरूपं नागेशेन दीयते सो इट् इस् वेरि क्लियर्लि ट्रैङ्ग् टु प्रूव् दट् व्यञ्जना इस् सेपरेट् फ्रम् लक्षण तार्किकाणां मते लक्षणायामेव व्यञ्जनायाः अन्तर्भावः यथा वयं शक्तावेव लक्षणायाः अन्तर्भावं प्रतिपादयामः तथा ते व्यञ्जनायाः लक्षणायाम् अन्तर्भावं प्रतिपादयन्ति किन्तु तत् न इति वक्तुमेव एतादृशं स्वरूपं दत्तं वस्तुतः व्यञ्जना नामक संस्कारविशेषः सो इट् इस् अ स्पेशल् कैण्ड् आफ् संस्कार वक्त्रादिवैशिष्ट्यज्ञानप्रतिभाद्युद्बुद्धः कथं जायते स संस्कारः वक्त्रादिवैशिष्ट्यज्ञानं कः वक्ता कः श्रोता इत्यादि विशिष्ट प्रकरणज्ञानेन प्रतिभादि प्रतिभा अपि आवश्यकी इट् इस् आल्सो नाट् पासिबल् अन्लेस् यु हाव् द प्रतिभा आफ् इण्टर्प्रिटेशन् नाट् जस्ट् लिसनिङ्ग् टु अ वर्ड् अण्ड् अण्डर्स्टाण्डिङ्ग् वाट् इट् मीन्स् अण्डर्स्टाण्डिङ्ग् द इम्प्लिकेशन् Vyanjana is what we call the implied meaning or the non-literal meaning. Padasya anyaha arthaha bhavati. Tasya kim implication iti jnatum pratibha apekshita. Okay, even in modern science, they call there is the intelligent quotient and there is the emotional quotient. Okay, so where you are trying to understand what the person intends rather than what he says. Okay, vachyaha arthaha bhinnaha vastutaha vivakshitaha, the implied meaning bhinna. अतः तथा एव व्यञ्जना इत्युच्यते वक्त्रादिवैशिष्ट्यज्ञानम् अपेक्षितम् कः वक्ता कस्मिन् सन्दर्भे वदति कम् उद्दिश्य वदति इत्यादि सर्वं ज्ञातव्यम् प्रतिभा च आवश्यकी टु एक्स्टेण्ड् द मीनिङ्ग् अप्रोप्रियेट्लि तेन उद्बुद्धः संस्कारविशेषः एव व्यञ्जना तस्याः किं स्वरूपम् मुख्यार्थबाधनिरपेक्षबोधजनकः एतत् स्मर्तव्यम् दिस् इस् इन् डिरेक्ट् अपोजिशन् टु लक्षणा लक्षणा किमर्थं भवति मुख्यार्थस्य बाधः लक्षणा अरैजस् ओन्ली वेन् द शक्यार्थ डस् नाट् फिट् इट् डस् नाट् फिट् द अन्वय आर् इट् डस् नाट् फिट् द तात्पर्य तात्पर्यस्य अन्वयस्य वा अनुपपत्तिः अत्र अस्ति मुख्यार्थस्य बाधः तत्रैव लक्षणा आश्रियते किन्तु व्यञ्जनायां मुख्यार्थस्य बाधः न भवति न अपेक्ष्यते मुख्यार्थबाध निरपेक्षबोधजनकः मुख्यार्थबाधस्य निरपेक्षतया यः बोधं जनयति मुख्यार्थसम्बन्ध असम्बन्धसाधारणः अपि च लक्षणायां किं दृष्टम् स्वशक्यसम्बन्धः शक्यार्थेन सह सम्बद्धः एव कश्चिदर्थः स्वीकर्तुं शक्यते गङ्गायां घोषः इत्यस्य अस्तु गङ्गापदस्य कुत्रचिन्नगरे लक्षण अथवा पर्वते लक्षण इति न स्वीक्रियते यु डोण्ट् टेक् द मीनिङ्ग् आफ् गङ्गा सम्थिङ्ग् विच् इस् टोटलि अन्रिलेटेड् सम्बन्धः अपेक्ष्यते मुख्यार्थेन सह सम्बन्धः अपेक्ष्यते लक्षणायाम् अत्र तु मुख्यार्थसम्बन्ध असम्बन्धसाधारणः कदाचित् सम्बन्धः भवति कदाचित् सम्बन्धः न भवति उभयथापि भवति सामान्यतः भवति प्रसिद्ध अप्रसिद्धार्थविषयकः अर्थः तेन यः व्यङ्ग्यार्थः उच्यते सः प्रसिद्धः भवितुमर्हति अथवा अप्रसिद्धः तादृशः वक्त्र्यादिवैशिष्ट्यज्ञानप्रतिभाद्युद्बुद्धः संस्कारविशेषः व्यञ्जना ननु व्यञ्जना कः पदार्थः उच्यते मुख्यार्थबाधनिरपेक्षबोधजनकः मुख्यार्थसम्बन्धासम्बन्धसाधारणः प्रसिद्धाप्रसिद्धार्थविषयकः वक्त्रादिवैशिष्ट्यज्ञानप्रतिभाद्युद्बुद्धः संस्कारविशेषः व्यञ्जना इत्युच्यते व्यञ्जनाप्रकरणे नागेशेन एकमपि उदाहरणं न दीयते हि डस् नाट् आफर् एनी एक्साम्पल्स् आफ् व्यञ्जना सो वन् स्टाण्डर्ड् एक्साम्पल् लैक् यु हाव् गङ्गायां घोषः फार् लक्षण द स्टाण्डर्ड् एक्साम्पल् फार् व्यञ्जना दे गिव् इस् द गतोस्तमर्कः अर्कः अस्तङ्गतः अर्कः नाम सूर्यः अस्तङ्गतः इति प्रयोगः द सन् हेस् सेट् अर्थः बुध्यत एव तस्य यः शक्यार्थः सः अस्ति मुख्यार्थबाधनिरपेक्षः तत्र शक्यार्थस्य बाधः नास्ति सूर्यः अस्तङ्गतः सम्यगेव तत्र तदेव तात्पर्यमपि तत्र तात्पर्य अनुपपत्तिरपि नास्ति किन्तु अस्य वाक्यस्य श्रवणेन यदा गतोस्तमर्कः इति वाक्यं श्रूयते तदा भिन्नानां श्रोतॄणां बोधः भिन्नः कश्चित् ब्रह्मचारी यदि गतोस्तमर्कः इति शृणोति तर्हि तस्य मनसि ओ सूर्यास्तः अभवत् तर्हि अस्मिन् समये मया सन्ध्यावन्दनं करणीयम् इति अर्थः स्फुरति So by hearing to the Gatostamarkaha, he relates it to one of his own kartavya, which is say Sandhyavandana at that time. Ataha Gatostamarkaha ityasya shravanena tasya Sandhyavandana karaniyatvam vyajyate tasmin kale. Anyaha kaschit yadi choraha etadvakyam shrunoti Gatostamarkaha, tarhi kim chintayati svasya karyasya anukulyamo tarhi maya karyam arabdhum shakyate. I have to set out for my job. Iti chintayati. Gatostamarkaha. Anyasya kasyachita anyartha pratipattihi syat. So based on these things, say somebody is fighting, gatostamarkaha ityukte, yadi niyamaparaha tarhi astu yuddham atrasthaganiyam. Iti pratitihi syat. Tatra mukhyarthasya badhaha nasti. The main artha, which means the sun has set, still holds. There is nothing wrong with it. It is true. And it is taken. Tasya arthasya badhaha nasti. Tathapi vaktradi vaishishtya jnana prathibadi. So based on the vaktra vaishishtya and based on the pratibha, that is also based on the context. So if it is referring to a romantic situation in a kavya, so the gatostamarkaha might again convey totally different meaning. Okay, so there vaktradi vaishishtya, what matters is the who is saying it, what is the intent, who tells that to what. Say the mother is saying it to a child, so she might mean, okay, it's enough of playtime, come in. Okay, so that could be the implication for that child. So that is vyangyartha which arises is subjective to the vakta, to the shrota, to the prasanga and to everything else. Okay, so vyanjana is where mukhyartha doesn't change. Yes, the mukhyartha is present, it is valid. From that mukhyartha, you draw several interpretations. That is vyanjana or vyangyartha. So it coexists along with the mukhyartha. You are not saying that the mukhyartha is not valid. Okay. So that is why, unlike lakshana, not unlike tatparya, so we will study what is tatparya later. Tatparya is the intention. Okay, that matters everywhere. So atra tu mukhyartha badhaha nasti. Mukhyaha yaha arthaha padena jnayate tasya badhaha nasti. Mukhyartha sambandhaha asambandhaha. Gatostamarkaha suryastamanasya tatha chaurakarmanaha sambandhaha nasti. There is no direct relation. Again, for Sandhyavandana, there might not be a relation. For any other meaning, there could be, there could not be. Okay, mukhyartha sambandha sambandha sadharana prasiddha aprasiddhartha vishayakaha. So it could be prasiddha, it could be aprasiddha. Say it is a code between two people, say between me and somebody else, which is very specific to ourselves. Okay, so the gadostamarkaha might be a code word for something for us. Okay, so then it is aprasiddha, where nobody else will be able to understand what it means. Okay, or it could be prasiddha, like say the meaning of Sandhyavandana, it could be prasiddha, that it is everybody does it at that time. It is prasiddha hasyat, kadachit aprasiddha hasyat. If the two of us, say a group of our friends, if there are four friends who always decide, okay, we will go out for say playing tennis at this time, so for them gatostamarkaha would mean play, would be associated with playing tennis, which is aprasiddha, which does not hold for anybody else. Okay, so prasiddha aprasiddhartha vishayakaha vaktradi vaishishtya jnana pratibhadyudbuddhaha samskara visheshaha vyanjana chuchyate. Okay, yameva vyanjana. So vyanjanayaha vishaye agrimavarge pashyama. Okay, so we'll see more about why vyanjana is to be accepted and what are the implications. Shimannattva hi nageshen anindya paramalaghu vayyakarana siddhanta manjo shesha virachyate. So next class we will have on Friday morning.